इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्य वार्ताः अद्य राष्ट्रपति भवने एकस्मिन् नागरिक अलंकरण समारोहे राष्ट्रपतिना पद्म पुरस्काराः प्रदीयन्ते उत्तर प्रदेशे नैर्वाचनिक प्रचाराभियानं द्रुततां भजते यत्र सर्वेषां राजनीतिक दलानां शीर्ष नेतारः नैर्वाचनिक सभाः पथ प्रदर्शनादिना सह प्रतिगृहं गत्वा च प्रचारं कुर्वन्तः सन्ति लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन प्रत्यावर्तनस्य प्रक्रिया च अद्य समाप्ता लोकसभा निर्वाचनस्य प्रत्येक चरणात् पूर्वं ताप तरंगस्य स्थितेः निरीक्षणाय निर्वाचनायोगेन कार्यदलस्य गठनं कृतमस्ति रक्षामंत्री राजनाथ सिंहः सुरक्षास्थितेः प्रत्यक्ष निरीक्षणाय अद्य विश्वस्य सर्वाति उन्नततमं युद्धक्षेत्रं सियाचीन इत्यत्र अगच्छत् सर्वोच्च न्यायालयेन महाराष्ट्रस्य 14-वर्षीयायाः कामुक कुकृत्य पीडितायाः गर्भावस्थायाः निरसनादेशो प्रदत्तः अपि च प्रधानमन्त्रिणा नरेन्द्रमोदिना चतुरंगस्य विलक्षण प्रतिभया अलंकृतस्य गुकेश डी इत्यस्य उत्कृष्ट प्रदर्शनस्य प्रशंसा कृता अथ वार्ताः विस्तरेण अद्य राष्ट्रपति भवने एकस्मिन् नागरिक अलंकरण समारोहे राष्ट्रपतिना पद्म पुरस्काराः प्रदीयन्ते राष्ट्रपति मुर्मू वर्यया प्राक्तनाय उपराष्ट्रपतये एम वेंकैया नायडू इत्यस्मै भारतनाट्यम् नृत्यविधायाः नृत्यंगनायै डॉ पद्मा सुब्रह्मण्यम् इत्यस्यै च पद्मविभूषण सम्मानेन सम्मानयिष्यते विन्देश्वर पाठकाय पद्मविभूषण सम्मानं मरणोपरान्ते प्रदीयते अभिनेत्रे मिथुन चक्रवर्तिने गायिकायै उषा उत्थुप इत्यस्यै च पद्मभूषण पुरस्कारः प्रदास्यते अन्येषु च पद्म पुरस्कारावाप्तेषु सुविदिताः सन्ति समाजसेविनः डॉ सीताराम जिन्दलः हृदयरोग विशेषज्ञः डॉ तेजस मधुसूदनः प्राक्तन उत्तरप्रदेशस्य राज्यपालः राम नाइकः आदयः पद्म पुरस्काराः देशस्य सर्वोच्च नागरिक सम्मानेषु सन्ति एते पुरस्काराः पद्मविभूषण पद्मभूषण पद्मश्री च त्रिषु श्रेणीषु विभक्ताः सन्ति उत्तर प्रदेशे नैर्वाचनिक प्रचाराभियानं द्रुततां भजते यत्र सर्वेषां राजनीतिक दलानां शीर्ष नेतारः नैर्वाचनिक सभाः पथ प्रदर्शनादिना सह प्रतिगृहं गत्वा च प्रचारं कुर्वन्तः सन्ति भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री च श्री नरेन्द्र मोदी उत्तर प्रदेशस्य अलीगढ़ जनपदे एकां राजनीतिक जनसभां सम्बोधितवान् तेन कांग्रेस दलेन सहित सहयोगि दलानाञ्च आलोचनां कुर्वता उक्तं यत् एते कम्युनिस्ट विचार सम्बलिताः सन्ति स्वस्य घोषणापत्रानुसारं ते जनानां सम्पदां सर्वेक्षणं कर्तुमिच्छन्ति यत्र ते पैतृक सम्पदामपि न त्यक्षन्ति प्रधानमन्त्रिणा कांग्रेस दलस्योपरि कठोरप्रहारं कुर्वता प्रोक्तं यत् एते तस्य वामविचारस्य समर्थनं कुर्वन्तः सन्ति यस्य विचारेण विश्वस्य नैके देशाः विपन्नाः भ्रष्टाश्च कारिताः सन्तीति प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ अपि अलीगढ़ नैर्वाचनिक सम्मर्देष् प्रातिभाग्यम् अकरोत् तत्रैव बहवः विपक्षदलीयाः नेतारः अपि प्रचाराभियाने संलग्नाः सन्ति बसपेति दलप्रमुखया मायावत्या अद्य बुलंदशहर जनपदे एका राजनीतिक जनसभा संबोधिता यत्र च तया भाजपेति दलस्योपरि वाक्प्रहारोऽपि विहितः लोकसभा निर्वाचनस्य तृतीय चरणाय नामांकन प्रत्यावर्तनस्य प्रक्रिया अद्य समाप्ता दश राज्येषु द्वयोः केन्द्रशासित प्रदेशयोश्च समस्त चतुर्नवतिषु लोकसभासनेषु अस्य मासस्य सप्तमे दिनांके मतदानं भविष्यति संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonairgov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति लोकसभा निर्वाचनस्य प्रत्येक चरणात् पूर्वं ताप तरंगस्य स्थितेः निरीक्षणाय निर्वाचनायोगेन कार्यदलस्य गठनं कृतमस्ति कार्यदले निर्वाचन आयोगस्य ऋतु विभागस्य राष्ट्रीय आपत प्रबंधनाधिकरणस्य स्वास्थ्य मंत्रालयस्य च अधिकारिणः सम्मिलिताः सन्ति। ते तापतरंगस्य आर्द्रतायाः प्रभावस्य च समीक्षां करिष्यन्ति, येन प्रत्येकस्य मतदानचरणस्य पञ्चदिनानि पूर्वं कस्याः अपि चिन्तास्पदस्थितेः उपशमनस्य उपायेषु विचारो भवेदिति। रक्षामन्त्री राजनाथसिंहः सुरक्षास्थितेः प्रत्यक्ष निरीक्षणाय अद्य विश्वस्य सर्वातिउन्नततमं युद्धक्षेत्रं सियाचिन इत्यत्र अगच्छत्। तत्र तेन विषमरितौ कठिन क्षेत्रीय परिस्थितिषु च सेवालग्नैः सैनिकैः सह संवादो विहितः। सः सैनिकान् सम्बोधयन् उक्तवान् यत् विषमपरिस्थितौ वीरतया दृढसंकल्पेन च मातृभूम्याः रक्षायै कृतयोगदानं प्रशंसनीयमस्तीति। तेनोक्तं यत् राष्ट्रं सशस्त्रबलानां सैनिकानां सदैव ऋणं धत्ते, यतोहि तेषां बलिदानबलादेव जनसामान्यः सुरक्षितत्वम् अनुभवति। सियाचीनक्षेत्रं भारतस्य सम्प्रभुतायाः दृढसंकल्पस्य च प्रतीकभूतमस्ति। इति ब्रुवन् रक्षामन्त्रिणा प्रोक्तं यत् सियाचीनक्षेत्रं साहस धैर्य दृढसंकल्पनानाञ्च राजधानी अस्तीति। तेन मेघदूताभियानस्य साफल्यमपि अवसरेऽस्मिन् स्मृतम्। तेनोक्तं यत् मेघदूत अभियानं देशस्य सैन्येतिहासस्य स्वर्णिमोऽध्यायः अस्ति, यं स्मृत्वा वयं सर्वे गर्वानुभूतिम् अनुभवामः। सर्वोच्चन्यायालयेन महाराष्ट्रस्य चतुर्दशवर्षीयायाः कामुककुकृत्यपीडितायाः गर्भावस्थायाः निरसनादेशो प्रदत्तः। अस्याः गर्भावस्था अष्टाविंशति सप्ताहात्मिका आसीत्। सर्वोच्चन्यायालयेन मुम्बईस्थस्य लोकमान्य तिलक चिकित्सालयस्य संकाय प्रमुखः निर्दिष्टः यत् सः एकस्य चिकित्सीयदलस्य घटनं करोत्विति। अरुणाचलप्रदेशस्य चतुर्णां विधानसभाक्षेत्राणाम् अष्टसु मतदानकेन्द्रेषु बुधवासरे पुनर्मतदानं भविष्यति। भारत निर्वाचनायोगेन एकोनविंशे दिनांके कृतमतदानं शून्यमिति घोषितमस्ति। वामिंग न्यापिन विधानसभाक्षेत्रयोः एकैकं, रुमगोंग इत्यत्र द्वे, नाचो विधानसभायाञ्च चतुर्षु मतदानकेन्द्रेषु बुधवासरे प्रातः षड्वादनतः द्विवादन मध्याह्नं यावत् मतदानप्रक्रिया समाचरिष्यते। एतेषां मतदानपरीक्षणमपि तस्मिन्नेव दिने मतदानानन्तरम् अनुक्षणमेव समारप्स्यते। ध्यातव्यमस्ति यत् प्रदेशेऽस्मिन् गतशुक्रवासरे लोकसभा विधानसभयोः मतदानम् एकसहैव आसीत्। अद्य सम्पूर्णे विश्वे पर्यावरण संरक्षण प्रयासान् समर्थनाय विश्व पृथ्वी दिवसः आचर्यते। ग्रह प्रत्युत प्लास्टिक इति वैश्विक विषयाधारितम् आयोजनमिदं प्लास्टिक प्रदूषणस्य गंभीर समस्यां प्रकृतौ तस्य हानिकारक प्रभावं च प्रकाशयति। अमेरिकादेशे कैलिफोर्निया तटानुवर्तिषु विशालसागर क्षेत्रेषु तैलप्रसारणस्य कतिपय मासेभ्यः अनन्तरं सप्तत्युत्तरैकोनविंशतितमे वर्षे एप्रिल मासस्य द्वाविंशे दिनांके पृथ्वीदिवसस्य आरम्भः अभवत्। अस्य आयोजनस्य पृष्ठे अमेरिकी सिनेटर गैलॉर्ड नेल्सन महोदयस्य, हार्वर्ड विश्वविद्यालयस्य छात्रस्य डेनिस हेस इत्यस्य च विचारः आसीत्। दिवसोऽयम् अस्मान् पर्यावरणस्य संरक्षणाय महत्वं च स्मारयति। विश्वव्यापिभ्यः जनेभ्यः स्वस्थ पृथिव्याः उत्तमभविष्याय प्रयत्नार्थम् आग्रहम् अपि करोति। मालदीव निर्वाचनायोगानुसारं मालदीवे पीपुल्स नेशनल कांग्रेस पीएनसी इत्यनेन दलेन घोषितेषु प्रथम षडशीति आसनेषु षड्षष्टि आसनानि विजितानि। सूचना अस्ति यत् राष्ट्रपतिः डॉ मोहम्मद मुइज्जु इत्यस्य दलस्य कृते निर्वाचनं महत्वपूर्णं कठिनपरीक्षणरूपेण आसीत्, यत्र भ्रष्टाचारस्य अनेकेषाम् आरोपाणाम् अपि तस्य नीतिनाञ्च कारणेन आलोचनाभिः आच्छादितम् आसीत्। ऊनविंशत्यधिकद्विसहस्रतमवर्षस्य निर्वाचने बहुमतं प्राप्तवत् मुख्यविपक्षिदलं मालदीवियन डेमोक्रेटिक पार्टीति दलम् एकादश आसनैः सह पुनरागतम्। एमडीपी इत्यस्य अध्यक्षः फैयाज इस्माइलः पीएनसी सांसदान् अभिनन्दितवान्। अन्ते क्रीडावार्तायां, प्रधानमन्त्रिणा नरेन्द्रमोदिना चतुरङ्गस्य विलक्षणप्रतिभया अलंकृतस्य गुकेस्टी इत्यस्य उत्कृष्टप्रदर्शनस्य प्रशंसा कृता। सामाजिकान्तर्जालपटले एकस्मिन् सन्देशे प्रधानमन्त्रिणा उक्तं यत् देशः गुकेश डी इत्यस्य कृते अतिगर्वितः अस्ति। इति वार्ताः।